कदाचनं व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् समावृतो बहुतरवत्समण्डलैः सते मनैर्निरगमदीशजेमनैः विनिर्यतस्तव चरणाम्बुजद्वयादुदञ्चितं त्रिभुवनपावनं व्रज महर्षयः पुळकधरैः कळेबरैरुदूहिरे धृतभवदीक्षणोत्सवा प्रचारयत्यविरळशाद्वलेतले पशून् विभो भवति समं कुमारकैः अघासुरोऽन्यरुणदघाय वर्तनी भयानकः सपदि शयानकाकृति महाचलप्रतिमतनोर्गुहानिभ प्रसारितप्रथितमुखस्य कानने मुखोदरं विहरणकौतुकाद्गता कुमारकाः किमपि विदूरगे त्वयि प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सगे विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशुरक्षितुम् गळोदरे विपुलितवर्ष्मणात्वया महोरगे लुठति निरुद्धमारुते द्रुतं भवान् विदळितकण्ठमण्डलो विमोचयन् पशुपशून् विनिर्ययौ क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् विनिर्गते त्वयि तु निलीनमञ्जसा नभस्थले न नृतुरथो जगुःसुरा स विस्मयैः कमलभवादिभिः सुरैः अनुद्रुतस्तदनुगतः कुमारकैः दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुतभोजनोत्सवम् विषाणिकामपि मुरळीं नितम्बगे निवेशयन् कबळधरः कराम्बुजे प्रहासयन् कळवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदानुतः सुखाशनं त्विह तव गोपमण्डले मखाशनात् प्रियमिव देवमण्डले इति स्तुतस्त्रिदशवरैर्जगत्पदे मरुत्पुरी निलय गदात् प्रपाहि माम् अन्यावतारनिकरेष्वनिरीक्षितं ते भूमातिरेकमभिवीक्ष्य तदाघमोक्षे ब्रह्मा परीक्षितुमनाः सपरोक्षभावं निन्येधवत्सकगणान् प्रवितत्यमायाम् वत्सानवीक्ष्य विवशे पशुपोत्करे तान् आनेतु कामयि वधातृमतानुवर्ती त्वं सामि भुक्तकबळो गतवांस्तदानीं भुक्तां स्थिरोधित सरोजभवः कुमारान् वत्सायितस्तदनुगोपगणायितस्त्वं शिक्यादिभाण्डमुरळीगवळादिरूपः प्राग्वद्विहृत्य नित्य विपिनेषु चिराय सायं त्वं माययाथ बहुधा व्रजमाययाथ त्वामेव शिक्यगवळादिमयं दधानो भूयस्त्वमेव पशुवत्सकबालरूपः गोरूपिणीभिरपि गोपवधूमयीभिः आसादितोऽसि जननीभिरतिप्रहर्षात् जीवं हि कञ्चिदभिमानवशात् स्वकीयं मत्वा तनूजयिति रागभरं वहन्त्य आत्मानमेव तु भवन्तमवाप्य सूनुं प्रीतिं ययुर्न कियतीं वनिताश्च गावः एवं प्रतिक्षण विजृंभित हर्षभार निःशेष गोपगणलालित भूरिमूर्तिं त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते ब्रह्मात्मनोरपि महान् युवयोर्विशेष वर्षावधौ नव पुरातनवत्सपालान् दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे प्रादीदृशः प्रतिनवान्मकुटाङ्गदादि भूषांश्चतुर्भुजयुजः सजलाम्बुदाभान् प्रत्येकमेव कमलापरिलालिताङ्गान् भोगीन्द्रभोगशयनान्नयनाभिरामान् लीलानिमीलितदृशः सनकादियोगिव्यासेवितान् कमलभूर्भवतो ददर्श नारायणाकृतिमसङ्ख्यतमां निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य धाता मायानिमग्नहृदयो विमुमोह यावत् एको बभूविथ तदा कबलार्धपाणि नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां नत्वा च नूतवति धातरि धामयाते पोतैः समं प्रमुदितैः प्रविशन् निकेतं वातालयाधिप विभो परिपाहि रोगात् अतीत्य बाल्यं जगतां पते त्वमुपेत्य पौगण्डवयो मनोज्ञम् उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तधा गोगणपालनायाम् उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्ति गोत्रापरित्राणकृतेऽवतीर्णस्तदेव देवारभधास्तदायत् कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन श्रीदामनाम्ना स्वसखस्य वाचा मोदादगाधेनुककाननं त्वम् उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् मृदुःखरश्चाभ्यपतत्पुरस्तात् फलोत्करो धेनुकदानवोऽपि समुद्यतो धैनुकपालनेऽहम् कथं वधं धैनुकमद्य कुर्वे इतीव मत् कृत्वा ध्रुवमग्रजेन सुरौघयोद्धारमजीघतस्त्वम् तदीयभृत्यानपि जम्बुगत्वेनोपागतानग्रजसंयुतस्त्वम् जम्बूफलानीव तदा निरास्थ तालेषु खेलन् भगवन्निरास्थ विनिघ्नति त्वय्यथ जम्बुकौघम् स नामकत्वाद्वरुणस्तदानीम् भयाकुलो जम्बुकनामधेयम् श्रुतिप्रसिद्धम् व्यधितेति मन्ये तवावतारस्य फलम् मुरारे सञ्जातमद्येति सुरैर्नुतस्त्वम् सत्यम् फलम् जातमिहेतिहासी बालैः समम् ताळफलान्यभुङ्क्था मधुद्रवसृन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुङ्क्त्वा तृप्तैश्च तृप्तैर्भवनम् फलौघम् वहद्भिरागा खलु बालकैस्त्वम् हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः जयेति जीवेति नुतो विभो त्वम् मरुत्पुराधीश्वर पाहि रोगात् त्वत्सेवोत्कः सौभरिर्नाम पूर्वम् काळिन्द्यन्तर्द्वादशाब्दम् तपस्यन् मीनव्राते स्नेहवान् भोगलोले तार्क्ष्यम् साक्षादैक्षदाग्रे कदाचित् त्वद्वाहम् तम् सक्षुधम् तृक्षसूनम् मीनम् कञ्चिज्जक्षतम् लक्षयन् सः तप्तश्चित्ते शप्तवानत्र चेत्त्वम् जन्तून् भोक्ता जीवितम् चापि मोक्ता तस्मिन् काले काळियक्ष्वेळदर्पात् सर्पाराते कल्पितम् भागमश्नन् तेन क्रोधात्त्वत्पदाम्भोजभाज पक्षक्षिप्तस्तद्दुरापम्पयोगात् घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षाविक्षताक्ष्वेळवेगात् पक्षिव्राताः पेतुरभ्रे पतन्त कारुण्यार्द्रम् त्वन्मनस्तेन जातम् काले तस्मिन्नेकदासीरपाणिम् मुक्त्वा याते यामुनम् काननान्तम् त्वय्युद्धामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन्क्ष्वेळतोऽयम् नश्यज्जीवान् विच्युतान् क्ष्मातलेतान् विश्वान् पश्यन्नच्युतत्वम् दयार्द्र प्राप्योपान्तम् जीवयामासिधद्राक् पीयूषाम्भो वर्षिभिः श्रीकटाक्षै किम् किम् जातो हर्षवर्षातिरेक सर्वाङ्गेष्वित्युद्धिता गोपसङ्घा दृष्ट्वाग्रे त्वाम् त्वत्कृतम् तद्विदन्तस्त्वामालिङ्गन् दृष्टनाना प्रभावा गावश्चैवं लब्धजीवाक्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् द्रागाववृः सर्वतो हर्षबाष्पन् व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्च्छा आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितो भू एवं भक्तान्मुक्तजीवानपि त्वं मुग्धावाङ्गैरस्तरोगांस्तनोषि तादृग्भूतस्फीतकारुण्यभूमा रोगात्पाया वायुगेहाधिवास अथवारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् द्रुतमारिधतीरगनीपतरुं विषमारुतशोषितपर्णचयम् अधिरुह्यपदाम्बुरुहेण च तं नवपल्लवतुल्यमनोज्ञरुच ह्रदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे भुवनत्रयभारभृतो भवतो गुरुभारविकम्पि विजृम्भिजला परिमज्जयति स्म धनुःशतकं तटिनी झटिति स्फुटघोषवती अध दिक्षु विदिक्षु परिक्षुभित भ्रमितोदरवारिनिनादभरैः उदगादुदगादुरगाधिपति त्वदुपान्तमशान्तरुषान्धमना भणशृङ्गसहस्रविनिःसृमर ज्वलदग्निकणोग्रविशाम्बुधरम् पुरतः फणिनं समलोक यथा बहुशृङ्गिणमञ्जनशैलमिव ज्वलदक्षिपरिक्षरदुग्रविशश्वसनोष्मभरः स महाभुजग परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो अविलोक्य भवन्तमधाकुलिते तटगामिनि बालकधेनुगणे व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गताय मुनां पशुपा अखिलेषु विभो भवदीयदशाम् अवलोक्य जिहासुषु जीवभरम् फणिबन्धनमाशु विमुच्य जवात् उदगम्यतः सजुषा भवता अधिरुह्य तत फणिराजभणान् ननृते भवता मृदुपादरुचा कलशिञ्जितनूपुरमञ्जुमिळत्करकङ्कणसङ्कुलसङ्क्वणितम् जहृषुः पशुपास्तु तुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणा त्वयि नृत्यति मारुतगेहपते परिपाहि स मां त्वमदान्तगदात् रुचिरकम्बितकुण्डलमण्डल सुचिरमीशननर्तितपन्नगे अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते नमति यद्यदमुष्यशिरोहरे పరివిహాయ తదున్నతమున్నతం పరిమథన్ పదపంకరుహాచిరం వ్యహరథాః కరతాళమనోహరం త్వదవభగ్న విభుగ్న భణాగణే గళిత శోణిత శోణిత పాథసి ఫణిపతావవసీదతి సన్నతాస్తదబలాస్తవ మాధవ పాదయో అయి పురైవ చిరాయ పరిశ్రుత త్వదనుభావ విలీన హృదోహిత మునిభిరప్యనవాప్యపథైస్తవై నునువురీష భవంతమయంత్రితం ఫణివధూగణ భక్తి విలోకన ప్రవికసత్కరుణాకులచేతస భణిపతిర్భవతాచ్యుత జీవితస్త్వయి సమర్పితమూర్తిరవానమత్ రమణకం వ్రజవారిధి మధ్యగం భణిరిపుర్న కరోతి విరోధితాం ఇతి భవద్వచనాన్యతిమానయన్ ఫణిపతిర్నిరగాదురగైః సమం ఫణివధూజన దత్త మణివ్రజజ్వలితహారదుకూల విభూషిత తటగతై ప్రమదాశ్రు విమిశ్రితై సమగథా స్వజనైర్దివసావధౌ నిశి పునస్తమసా వ్రజమందిరం వ్రజితుమక్షమయేవ జనోత్కరే స్వపతి తత్ర భవచ్చరణాశ్రయే దవకృశానురరుంధ సమంతత ప్రబుధితానథ పాలయ పాలయేత్యుదయదార్తరవాన్ పశుపాలకాన్ అవితుమాశు పపాథ మహానలం కిమిహ చిత్రమయం ఖలు తే ముఖం శిఖిని వర్ణతయేవ హి పీతత పరిలసత్యధునా క్రియయాప్యసౌ ఇతి నుతః పశుపైర్ముదితైర్విభో హర హరే దురితై సహ మే గదాన్ రామ సఖ క్వాపి దినే కామద భగవన్ గతో భవాన్ విపినం సూనుభిరపి గోపానాం ధేనుభిరభి సంవృతోలసద్వేష సందర్శయన్ బలాయ స్వైరం వృందావనశ్రియం విమలాం కాండీరైః సహ బాలైర్భాండీరకమాగమో వటం క్రీడన్ తావక నిధన స్పృహయాలుర్గోపమూర్తిరదయాలు దైత్యః ప్రలంబనామా ప్రలంబబాహుం భవంతమాపేదే జానన్నప్యవిజానన్నివ తేన సమం నిబద్ధ సౌహార్ద వటనికటే పటు పశుపవ్యాబద్ధం ద్వంద్వయుద్ధమారబ్ధ గోపాన్ విభజ్య తన్వన్ సంఘం బలభద్రకం భవత్కమపి त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन् कल्पितविजेतृवहने समरे परयूथगं स्वदैततरम् श्रीदामानमधत्थ पराजितो भक्तदासतां प्रथयन् एवं बहुषु विभूमन् बालेषु वहत्सु बाह्यमानेषु रामविजितः प्रलम्बो जहारतं दूरतो भवद्भीत्या त्वद्दूरं गमयन्तं तं दृष्ट्वा हलिनिविहितगरिमभरे दैत्यस्वरूपमागाद्यद्रूपात् स हि बलोऽपि चकितोऽभूत् उच्चतया दैत्यतनुस्त्वन्मुखमालोक्य दूरतो राम विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् हत्वा दानववीरं प्राप्तं बलमालिलिङ्गितः प्रेम्णा तावन्मिरतोर्युवयो शिरसि कृता पुष्पवृष्टिरमरगणैः आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् कालं विहाय सद्यो लोलम्बरुचे हरे हरे क्लेशान् त्वयि विहरणलोले बालजालैः प्रलम्बप्रमथनसविलम्बे धेनवस्वैरचारा तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः किमपि विपिनमैषीकाख्यमीषां बभूव अनधिगतनिदाघक्रौर्यवृन्दावनान्तात् बहिरिदमुपयाता काननं धेनवस्ता तव विरहविषण्णा ऊष्मलग्रीष्मतापप्रसरविसरदम्भस्याकुला स्तम्भमापु तदनु सहसहायैर्दूरमन्विष्य शौरे गलितसरणिमुञ्जारण्यसञ्जातघेदम् पशुकुलमभिवीक्ष्य क्षिप्रमाने तु मारा त्वयि गतवति हि सर्वतोऽग्निर्जजृम्भे सकलहरिति दीप्ते घोरभाङ्कारभीमे शिखिनि विहतमार्गा अर्धदग्धायि वार्ता अहह भुवनबन्धो पाहि पाहीति सर्वे शरणमुपगतास्त्वां तापहर्तारमेकम् अलमलमतिभीत्या सर्वतो मीलयध्वं दृश इति तव वाचा मीलिताक्षेषु तेषु क्व नु दवदहनोऽसौ कुत्र मुञ्जाटवीसा सपदि ववृतिरेते हन्त भाण्डीरदेशे जय जय तव मायागेयमीशेति तेषां नुतिभिरुदितहासो बद्धनानाविलास पुनरपि विपिनान्ते प्राचरः पाटलादि प्रसवनिकरमात्रग्राह्यघर्मानुभावे त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं തവ ഭജനവദന്തഃ പങ്കമുച്ഛോഷയന്തം തവ ഭുജവദുദം ചദ്ഭൂരി തേജ പ്രവാഹം തപസമയമനൈഷീര്യാ മുനേഷു സ്ഥലേഷു തദനു ജലദജാലൈസ്ത്വദ്വപുസ്തുല്യഭാഭി വികസദമല വിദ്യുത്പീതവാസോ വിലാസൈ സകല ഭുവന ഭാജാം ഹർഷതാം വർഷവേളാം ക്ഷിതിധര കുഹരേഷു സ്വൈരവാസീ വ്യനൈഷീ കുഹരതല നിവിഷ്ടം ത്വാം ഗരിഷ്ഠം ഗിരീന്ദ്രശിഖികുലനവകേകാകാകുഭിസ്തോത്രകാരീ സ്ഫുടകുടജകദംബസ്തോമപുഷ്പാഞ്ജലിം ച പ്രവിദധദനുഭേജേ ദേവഗോവർദ്ധനോസൌ അഥ ശരദമുപേതാം താം ഭവദ്ഭക്തചേതോ വിമലസലിലപൂരാം മാനയൻ കാനനേഷു തൃണവമലവനാന്തേ ചാരു സഞ്ചാരയൻ ഗാ പവനപുരപദേ ത്വം ദേഹി മേ ദേഹസൗഖ്യം ത്വദ്വപുർണവകളായ കോമളം േമദോഹനമശേഷമോഹനം ബ്രഹ്മതത്വപരചിന്മുദാത്മകം വീക്ഷ്യ സമ്മുഹുരന്വഹം സ്ത്രിയ മന്മഥോന്മഥിതമാനസാക്രമാത് ത്വദ്വിലോകനരതാസ്തതസ്തത ഗോപികാസ്തവ നസേഹി രേ ഹരേ കാനനോപഗതിമപ്യഹർമുഖേ നിർഗതേ ഭവതി ദത്തദൃഷ്ടയഃ ത്വദ്ഗതേന മനസാ മൃഗേ ക്ഷണാ വേണുനാദമുപകർണ്യ ദൂരതഃ ത്വദ്വിലാസകഥയാഭിരേമി രേ കാനനാന്തമിതവാന് ഭവാനപി സ്നിഗ്ധപാദപതലെ മനോരമേ വ്യത്യയാകലിതപാദമാസ്ഥിതഃ പ്രത്യപൂരയത വേണുനാളികാം മാരബാണധുതഖേചരീകുലം നിർവികാരപശുപക്ഷിമണ്ഡലം ദ്രാവണം ച ദൃശദാമപി പ്രഭോ താവകം വ്യജനി വേണുകൂജിതം വേണുരന്ധ്രതരളാങ്കുലീദളം താളസഞ്ചലിതപാദപല്ലവം തത്സ്ഥിതം തവ പരോക്ഷമപ്യഹോ സംവിചിന്ത്യ മുമുഹുർവ്രജാംഗനാ നിർവിശങ്കഭവദംഗദർശിനീ ഖേചരീ ഖഗമൃഗാന് പശൂനപി ത്വത്പദ പ്രണയികാനനം ച താ ധന്യധന്യമിതി നന്വമാനയൻ ആപിബേയമധരാമൃതം കദാ വേണുഭുക്തരസശേഷമേ കദാ ദൂരതോബതകൃതം ദുരാശയേത്യാകുലാ മുഹുരിമാസമാമുഹൻ പ്രത്യഹം ച പുനരിത്ഥമംഗനാശ്ചിത്തയോ നിജനിതാദനുഗ്രഹാത് ബദ്ധരാഗവിവശാസ്ത്വയി പ്രഭോ నిత్యమాపురిహ కృత్యమూఢతాం రాగస్తావజ్జాయతే హి స్వభావాన్ మోక్షో వాయో యత్నతః స్యాన్న వా స్యాత్ తాసాం త్వేకం తద్వయం లబ్ధమాసీత్ భాగ్యం భాగ్యం పాహి మాం మారుతేశ మదనాదురచేతసోన్వహం భవదంఘ్రిద్వయదాస్య కామ్యయా యమునాతటసీం నిసైకతీం తరళాక్ష్యో గిరిజాం సమార్చిచన్ తవ నామకథారతాః సమం సుదృశః ప్రాతరుపాగతా నదీం ఉపహారశతైరపూజయన్ దయితోనందసుతో భవేదితి ఇతి మా సముపాహిత వ్రతస్తరళాక్షీరభివీక్ష్యతా భవాన్ కరుణామృదులో నదీతటం సమయాసీతదనుగ్రహేచ్ఛయా నియమావసితౌ నిజాంబరం తటసీమన్యవముచ్యతాస్తదా యమునా జలఖేళనాకులా పురతస్త్వామవలోక్య లజ్జితా త్రపయానమితాననాస్వథో వనితాస్వంబరజాలమంతికే నిహితం పరిగృహ్య భూరుహో విటపం త్వం తరసాధిరూఢవాన్ ఇహ తావదుపేత్య నీయతాం వసనం వసుదృశో యథాయథం ఇతి నర్మ మృదుస్మితే త్వయి బ్రువతి వ్యాముముహేవధూజనై అయి జీవచిరం కిశోరనస్తవదాసీరవశీకరోషి కిం ప్రదిశాంబరమంబుజే క్షణేత్యుదితస్త్వం స్మితమేవ దత్తవాన్ అధిరుహ్య తటం కృతాంజలి పరిశుద్ధా స్వగతుర్నిరీక్ష్యతా వసనాన్యఖిలాన్యనుగ్రహం పునరేవం గిరమప్యదాముదా విదితం నను వో మనీషితం వదితారస్త్విహ యోగ్యముత్తరం యమునాపుళినే సచంద్రికా క్షణదాయిత్యబలాస్త్వమూచివాన్ ఉపకర్ణ్య భవన్ముఖచ్యుతం మధునిష్యంది వచో మృగీదృశ ప్రణయాదయి వీక్ష్య వీక్ష్యతే వదనాబ్జం శనకైర్గృహం గతా ఇతి నన్వనుగృహ్య వల్లవీర్విపినాందేషు పురేవ సంచరన్ కరుణాశిశిరో హరే హర త్వరయా మే సకలామయావలీం.